गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनश्रृण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनाम वित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाचन्तमया गिरिशन्ता विचाकशीः या विशुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसेः पुरुषम् जगते शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असते अध्यवोचददि वक्ता प्रथमो दैव्योऽभिषके अहीगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीनुषे अधो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः
प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्याणाम् मुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नातताय दृष्टवे उभाम्यामुतते नमो बाहुम्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् ऋणत्तु विश्वतः अथो यदिषु निस्तवारि अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यभावेशे नान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। तस्मिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्रुषाय व्याहिने नानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य नित्ये जगतां पतये नमो नमो। रुद्राय दताविने क्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय स्तवतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्त्रताय औषधीनां पतये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम। कृत्स्नवेताय धावते सत्त्वनां पतये नमः। नमः सामानाय व्याधिनां पतये नमो नमः। ककुहाय निषङ्गिणे तेनानां पतये नमो नमो। निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते सायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नमः। श्रिकाविभ्यो दिगागुं तद्भ्यो मुष्णतां पतये नमो नमो। त्रिमद्भ्यो नक्तञ्चरभ्यः प्रकृन्तानां पतये नमो नम। उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम। इषुमद्भ्यो दन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमो। सद्भ्यो विद्यभ्यश्च वो नमो नम। आसेनेभ्यः शयानेभ्यश्च वो नमो नमः। स्वमद्भ्यो चाग्रभ्यश्च वो नमो नमः। स्पृष्टद्भ्यो दावभ्यश्च वो नमो नमः। समाव्यत्सवापदिभ्यश्च वो नमो नमो। अश्वेभ्योरश्वपदिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाव्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो। भ्रातेभ्यो भ्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रतिभ्यो रतेभ्यश्च वो नमो नमो। रतेभ्यो रतपदेभ्यश्च वो नमो नमः। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమస్తక్షద్వ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుణ్యిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వరిభ్యశ్చ వో నమో నమః అశ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః సర్వాయ చ పశుమతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కమర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబిష్టాయ చ నమో మేనుష్టమాయ చేశుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్నియాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శేభ్యాయ చ నమః ఓర్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్పాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోప్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురతాయ చ నమః శౌరాయ చ వవిందతే చ నమో వర్మినే చ వరుణినే చ నమో బిల్వినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో విష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేసుమతే చ నమః తీక్ష్ణే చ వేచాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కార్త్యాయ చ నీప్యాయ చ నమః స్తోత్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తవాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చానీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేత్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః प्रतरणाय चोत्तरणाय च नम आतार्याय च लाद्याय च नम शष्प्याय च पेण्याय च नम स्विकत्याय च प्रवाह्याय च नम इदिन्याय च प्रवत्याय च नम केगुंशिलाय च क्षयणाय च नम कपर्दिने च मुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नम कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नम पागुं सव्याय च रजस्याय च नम सृष्ट्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्याय च सूर्याय च नम वर्ण्याय च वर्णशक्त्याय च नमो पङ्गुरमाणाय च विघ्नते च नम आखिलते च प्रखिलते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमो आनिर्हतेभ्यो नम आमि वत्केभ्यः द्रावे अन्धसस्पते नरिद्रन्नीललोहिता मेषाम् पुरुषाणाम् मेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्च नाम मत याते रुद्र शिवा तनो शिवा विश्वाः वेषरि शिवा रुद्रस्य वेषरि तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुरम् मृणानो रुद्रो तनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्चञ्जयोश्च मनुरायजे पिता तदश्याम तव रुद्रः प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानौक्ष्यन्तमुतमानौक्षितम् मानो वदे पितरम् मोतमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो कोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्तो नमसा विधेमते आरार्ते गोग्न उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयथा च न शर्म यच्च द्विपर्हा सुहिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्मृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्ति रामगवभ्यस्तनुष्वमेव शोकाय तनयाय मृडया मेढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् विभ्रदागहे विकिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहोस्तव हेतयः तासामीशानो भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शल्वा अधः क्षवाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पथिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रुकावन्तानि शङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे एति विषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोतिचीर्दशो द्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् भेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना नृत्योन्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाम्प्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि समुष्टु हि यस्विषः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेश्वजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवावर्धन्तु भाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धेतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्विश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्दा च मे दर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्छ मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे स्थिरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुधिदम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्यश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेनम् च मे शुच्च मे ऋहयश्च मे यवाश्च मे माजाश्च मे तिलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दानाभ्यश्च मेधिपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्पते आश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदिश्च मे दिष्टियाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृच्च म आधवनीयश्च म आग्नेयेर्धम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच मे तुर्यौहे च मे पष्टवाच मे पष्टौहे च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च यस्यस्यान्यायनश्चान्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानिषगुंसिषद्विश्वे देवासूर्तवाच पृथिवीमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाये पितरो नु मदन्तु ॐ शान्ति 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 हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महामहाजातवेदो लक्ष्मी मनमगामिनी यस्याम् हिरण्यम् विन्देयम् गामस्वम् पुरुषादहम् अश्वमूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीमा देवी द्विषताम् काम् सुस्मिताम् हिरण्यप्राकारा मात्राम् ज्वलन्तीम् तृप्ताम् अर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यजसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायातरायाश्च माह्य अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि नास्मेऽस्मि कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठमलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिन्नुदमे गृहात् गन्धद्वारा दुराधर्षाम् नित्यपुष्पाम् करिष्यणे ईश्वरीकम् सर्वभूतानाम् रामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमसीमहे पशूना रूपमन्यस्य महिश्रीम् श्रयताम् यजः कर्दमेन प्रजाभूत मयि सम्भव कर्दमा श्रियम् वाचय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु सिद्धानि चिक्लेतव समे गृहे निच देवीम् मातरम् श्रियम् वाचय मे कुले आन्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् च चन्द्राम् हिरण्मयीम् लक्ष्मीम् ज्ञातवेदो महावः आर्द्राम् यः करिणीम् यस्तिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् ज्ञातवेदो महावः महावह जातवेदो लक्ष्मीमनमनामिनी यस्याम् हिरण्यम् प्रभूतम् गावो नास्योस्त्वा विन्देयम् पुरुषानहम् यश्वचिः प्रयतो भूत्वा जुहुयादाद्यमन्वहम् श्रियम् पञ्चदशम् च श्रीकामः सततम् जपेत् पद्मानने पद्म ऊरु पद्माक्षे पद्मशम्भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मे दुशताम् देवि सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् अश्वस्वादिकवेरथम् प्रजानाम् भवसि मात आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च माच्छर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा वर्षन्तु ते विभावरि निवो अम्रस्य विद्युतः रोहन्तु सर्वबीजान्यव ब्रह्मद्विषोचये पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्व यासा पद्मासनस्था विपुलकटितटि पद्मपत्रायताक्षे गम्भीरा भक्तनाभिस्तनभरणमिता शुम्रवस्त्रोत्तरीया लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिघणखचितैस्नापिता हेमकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मी क्षीरसमुद्रराजतनया श्रीरङ्गधामेश्वरी दासे भूतसमस्तदेववनिताम् लोकैकदीपाम् गुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजा वन्दे मुकुन्द प्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मीर्वरलक्ष्मी सप्रसन्ना मम सर्वदा वराङ्कुशोपासमभीतिमुद्राम् करे वहन्ति कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेत्राम् वरेहमम्बाम् जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्धसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मे च विद्महे विष्णुपत्ने च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ